लोकाभिरामं रणरङ्गधीरं राजीवनेत्रं रघुवंशनाथं कारुण्यरूपं करुणाकरं तं श्रीरामचन्द्रं शरणं प्रपद्ये। संस्कृत प्रेमिणः मे श्रोतारः, देवता विषयकं श्लोकं समाश्रित्य एषा अहं निधिः तिवारी सर्वान् श्रोतॄन् प्रति स्वकीयं स्नेहपूर्वकं नमनं समर्पयामि। प्रियमित्राणि, इष्टप्राप्तये भारतीय सनातन धर्मे नैके उपायाः मार्गाश्च सन्ति उल्लिखिताः। एतदर्थं नैकानि स्तुतिपरकानि शास्त्राण्यपि विरचितानि मनीषिभिः। तत्रैव शास्त्रेषु उपनिबद्धानि सुभाषितवाक्यानि अस्मान् निश्चप्रचं प्रेरयन्ति। एकम् अवबोधगम्यं सुभाषितमादाय अत्रागतः अस्मदीयः सहयोगी पुरुषोत्तम शर्मा।
अधमाः धनमिच्छन्ति, धनं मानं च मध्यमाः, उत्तमाः मानमिच्छन्ति, मानो हि महतां धनम्। अर्थात् निम्न कोटि के लोगों को सिर्फ धन की इच्छा रहती है, ऐसे लोगों को सम्मान से मतलब नहीं होता। एक मध्यम कोटि का व्यक्ति धन और सम्मान दोनों की इच्छा करता है, वहीं एक उच्च कोटि के व्यक्ति के लिए सम्मान ही मायने रखता है। सम्मान धन से अधिक मूल्यवान है।
श्रोतारः, भगवत कृपा प्राप्तये साधुभिः अनेके मार्गाः अन्वेषिताः। तेषु मार्गेषु अन्यतमास्ति देवतास्तुतिः। ताम् एकां स्तुतिं स्वीकृत्य अत्र उपस्थितो विद्यते अस्मदीयः सहयोगी नरेन्द्रदत्त सेमवालः।
नागेन्द्रहाराय त्रिलोचनाय अस्माङ्गरागाय महेश्वराय नागेन्द्रहाराय त्रिलोचनाय अस्माङ्गरागाय महेश्वराय नित्याय शुद्धाय दिगम्बराय तस्मै नकाराय नमः शिवाय। नित्याय शुद्धाय दिगम्बराय तस्मै नकाराय नमः शिवाय। नमः शिवाय, नमः शिवाय, नमः शिवाय, ॐ नमः शिवाय, नमः शिवाय, नमः शिवाय, नमः शिवाय, ॐ नमः शिवाय। मन्दाकिनी सलिलचन्दनचर्चिताय नन्दीश्वर प्रमथनाथ महेश्वराय। मन्दारपुष्प बहुपुष्प सुपूजिताय तस्मै मकाराय नमः शिवाय। नमः शिवाय, नमः शिवाय, नमः शिवाय, ॐ नमः शिवाय।
प्रियाः बान्धवाः, सांसारिक ज्ञानावाप्तये देश विदेशयोः समसामयिक घटनाः महत्वपूर्णाः विद्यन्ते। घटनाभिः विना ज्ञानम् अर्धमेव प्रकल्पितम्। तावत् सुषमा कुमारी एताः घटनाः श्रावयति। आयान्तु मिलित्वा शृणुमो वयम्।
प्रधानमन्त्री नरेन्द्र मोदी मुम्बय्यां प्रथम विश्व श्रव्य दृश्य मनोरञ्जन शिखर सम्मेलनम् उद्घाटितवान्। केन्द्रीय मन्त्रिमण्डलेन आगामि जनगणनायां जाति गणनां समावेशयितुम् अनुमतिः प्रदत्ता। पहलगाम आतंकी आक्रमणमालक्ष्य भारतेन पाकिस्तानीय वैमानिक सेवाः निरस्तीकृताः। बांग्लादेशस्य सर्वोच्च न्यायालयेन इस्कॉन इति संस्थायाः पूर्वसन्तस्य चिन्मय कृष्णदासस्य प्रत्यभूति याचिका निरस्तीकृता। अमेरिका युक्रेन देशौ खनिज सन्धिपत्रैः प्रमाणीकृते। गुरिन्दर वीरसिंहः, अनिमेष कजूरः, मणिकान्त होब्लीधरः, अमलान बोरगोहेनश्च चंडीगढ़े भारतीय मुक्त रिले प्रतियोगितायां द्विगुणित शत मीटर रिले धावन स्पर्धायां राष्ट्रीय स्तरं संप्राप्तवन्तः। गुरुवासरे विश्व श्रमिक दिवसः आमानितः। श्रमिकान्दोलनेषु विविध देशानां अर्थव्यवस्थायां श्रमिकाणां योगदानानां रेखांकनार्थं मई मासस्य प्रथम तारिकायां श्रमिक दिवसः परिपाल्यते।
शोभनम् उक्तं भवत्या। साम्प्रतं वयम् अग्रेसरामः ज्ञानविज्ञान प्रभागं प्रति, यत्र अस्माकं सहयोगी सुरेश चन्द्र शर्मा दिल्ली विश्वविद्यालये सह प्राध्यापक रूपेण कार्यरतेन डॉक्टर संजय कुमार महाभागेन सह साक्षात्कार संवादं साधयति। ततः परं आगच्छन्तु ज्ञान प्रवाहे, एतस्मिन् निमज्जाः भवामो वयम्।
वागर्थाविव सम्पृक्तौ वागर्थः प्रतिपत्तये, जगतः पितरौ वन्दे पार्वती परमेश्वरौ। प्रियाः सुरभारती समुपासकाः श्रोतृवर्याः, अतीव हर्षस्य विषयः यत् आकाशवाण्याम् अस्माभिः सह संवादाय अद्य विराजन्ते दिल्ली विश्वविद्यालये एसोसिएट प्रोफेसर इति पदमासीनाः डॉक्टर संजय कुमार महोदयाः। संजय महोदयानां हर्षातिरेकाभिनन्दन वचोभिः आकाशवाणी पक्षतः अहं सुरेश चन्द्र शर्मा हार्दिकम् अभिनन्दनम् स्वागतञ्च वर्तामहे।
धन्यवादाः महोदयाः, अहम् अपि अत्र आगत्य हर्षम् अनुभवामि।
महोदयाः, संवाद प्रभागस्य एतस्य प्रथमे अंशे प्रश्नः यत् आधुनिक संस्कृत साहित्ये सामाजिक चिन्तन स्वरूपं किमस्ति इति विषये अस्माकं श्रोतारः ज्ञातुमिच्छन्ति।
महोदय, आधुनिक संस्कृत साहित्यं भाषा अलंकार गुण रीतिभिः वृत्तिभिश्च यावत् समृद्धम् अस्ति तावदेव सामाजिक चिन्तनेनापि समृद्धम् अस्ति। कस्यापि देशस्य कृते श्रेष्ठ समाजः तथैव आवश्यकः यथा आवश्यकः अस्मत् जीवनस्य कृते प्राणवायुरिति।
यथा प्राणवायुः तथा तथैव सामाजिक चिन्तन स्वरूपम्।
आम् आम्, श्रेष्ठ समाज एव राष्ट्रस्य स्वरूपम् अस्ति, तनैव विश्वपटले देशस्य स्वरूपं सुनिश्चितं भवति। समाज निर्माणे साहित्यस्य महती भूमिका भवति, अत एव रामनारायण तर्क रत्नः, राजराज वर्मा, पंडित क्षमाराव, वेंकट राघवन, परमानंद शास्त्री, बच्चूलाल अवस्थी, रामजी उपाध्याय, रेवा प्रसाद द्विवेदी, श्रीनिवास रथ, अभिराज राजेन्द्र मिश्र, रमाकांत शुक्ल, राधावल्लभ त्रिपाठी, रामशंकर अवस्थी इत्यादयः आधुनिकाः संस्कृत कवयः।
ये कवि श्रेष्ठाः सन्ति।
आम् आम्, सामाजिक चिन्तनस्य बीजवपनं स्वकीयेषु काव्येषु साहित्येषु लिखेषु रचनासु च कृतवन्तः सन्ति। यच्च कस्यापि साहित्यस्य कृते समाजस्य च कृते गौरवमयो विषयः विद्यते।
साधूक्तं भवता महोदयाः, स्त्रियोपि समाजस्य कृते महत्वपूर्ण अङ्गरूपेण विद्यन्ते। अतोऽहं सम्प्रति प्रष्टुमिच्छामि यत् आधुनिक संस्कृत साहित्ये स्त्रीणां समस्यानाम् उपरि कीदृशः विचारः प्राप्यते इति निर्दिशन्तु भवन्तः कृपया।
उचितं पृष्टं भवता महोदय। आधुनिक संस्कृत साहित्यं स्वस्थ समाजस्य स्थापनायां विश्वसीति तत्र च यथाशक्ति प्रेरयति। स्त्रियश्च समाजस्य अभिन्नङ्गात्वेन वर्तन्ते, अत्र तासां शिक्षा स्वास्थ्य विषये तासां स्वाभिमान विषये च आधुनिक संस्कृत साहित्ये महती चर्चा
दरीदृश्यते।
तत्र देवता विशेष रूपेण च ईश्वरचन्द्र विद्यासागरः, रामनारायण तर्करत्नः, बिहारी लालः, हरिवल्लभः, अभिराज राजेन्द्र मिश्रवर्यादयः संस्कृत कवयः स्त्री सशक्तिकरण दृष्ट्या उल्लेखनीयं कार्यं कृतवन्तः। अत्र खलु बिहारी लाल रचितं विधवा परिणयोत्सव नाटकस्य नामोल्लेखं करोमि।
नाटकं वर्तते विधवा परिणयोत्सव।
न, आम् आम्, यत्र विधवा स्त्रियः विवाह उत्सव रूपेण दर्शिता अस्ति
सन्ति अस्तु महोदयाः सम्प्रति श्रोतारः ज्ञातुम् इच्छन्ति यत् स्त्रीणां कृते तु तावतेव चर्चा विद्यत एव यथा भवता प्रोक्तम् तर्हि राष्ट्रिय भावनामाधृत्य आधुनिक संस्कृत साहित्ये किं विचारस्वरूपं दृश्यते
महोदय राष्ट्रस्य राष्ट्रियतास्य कृते यद्यपि संस्कृत साहित्ये प्राचीन कालात एव शास्त्रेषु महत् चिन्तनम् अस्माभिः दृश्यते पुनरपि अद्यापि आधुनिक साहित्ये संस्कृत पत्र पत्रिकासु च राष्ट्रीय भावनायाः व्यापकं स्वरूपम् उद्घाटितम्
आधुनिक संस्कृत साहित्यं वा प्राचीनतम संस्कृत साहित्यं वा सर्वत्र
सर्वत्र सर्वत्र विशेषतः आंग्ल साम्राज्य दयानंद चरितम भवानी भारती कारगिल युद्धम इत्यादीनि पदमयानि साहित्यानि उल्लेखनीयानि विद्यन्ते
यत्र राष्ट्रीय भावनायाः परिचयः प्राप्यते
आम आम तेषु च भवानी भारती इति सर्वम् अवश्यम् अध्येतव्यम् यत्र स्वाधीनतायाः सर्वोच्च भावाः कविनाः प्रदर्शितास्ति
अत्र भवानी भारती इत्यत्र
जी काव्ये नैतादेव पर्यावरणम् अपि राष्ट्रस्य महत्वपूर्ण विषयः तद् विषयेण अपि आधुनिक संस्कृत साहित्यं सर्वथा परिचितम् अस्ति अत्र वृक्ष वनस्पति पशु पक्षी नदी पर्वतादि सर्वेषां संरक्षणस्य चर्चा अस्ति पृथ्वी जल वायु अग्नि आकाश समष्टिभूत जगतः परिचर्चा दृश्यते
प्रकृति तत्त्वेषु सर्वत्र
सर्वत्र सर्वत्र प्रकृति सुषमायाः विषये रेवाभद्रपीठमिति अवश्यम् अध्येतव्यम् प्रकृति संरक्षण संवर्धन विषयकम् अभूतपूर्वम् चिन्तनम् तत्र विद्यते
साधु महोदयाः सम्प्रति प्रश्नः यत् आधुनिक संस्कृत साहित्ये शिक्षा विषये किम् व्यापकम् चिन्तनम् अस्ति इति किञ्चित् वक्तव्यम् अत्र विषये
शिक्षा विषये तु सर्वत्र चर्चा प्रसरत्तेव यतो हि शिक्षा तु सर्वेषाम् कृते सर्वथा आवश्यकम् तत्त्वम् पुनरपि अहम् अस्मिन् विषये पण्डित क्षमा राव रामजी उपाध्याय अभिराज राजेन्द्र मिश्र राधा वल्लभ त्रिपाठी इत्यादिना गौरवभूतानां नामोल्लेखं विदधामि यही शिक्षा कीदृशी भवितव्या शिक्षा विमुक्तये
स्वीय विचारान् प्रकटितवन्तः एते महोदयाः
आम् आम् शिक्षा विमुक्तये स्यात् नियुक्तये वा शिक्षाया किं प्रयोजनम् इत्यादीनां शिक्षा सम्बन्धित सर्वेषां विषयाणाम् उपरि चिन्तनं कृतम् अस्ति आचार्य रामजी उपाध्यायेन द्वासुपर्णा उपन्यासे पुरुष स्त्री उभयोरेव कृते शिक्षा परम आवश्यकी इति उक्तम् अपि च कविना तत्र नैतिक शिक्षा संस्कारः सदाचारन्विता शिक्षा समाजे भवितव्येति दृढतया प्रोक्तम् यस्य विचारः राष्ट्रिय शिक्षा नीति विंशति विंशति इत्यनुरूपम् विद्यते
बहु समीचीनम् महोदयाः अन्तिमे अंशे संवाद प्रभागस्य एतस्य प्रश्नः यत् सामाजिक न्याय दृष्ट्या आधुनिक संस्कृत साहित्ये कः विचारः उपलभ्यते अस्माकं श्रोतारः एतद्विषये ज्ञातुमिच्छन्ति
शोभनम् महोदय आधुनिक संस्कृत साहित्ये सामाजिक न्यायस्य साहित्यं विद्यते इह खलु समाजात् वञ्चितानां वर्गाणाम् अधिकार रक्षा तदुत्थानस्य च कृते महद् विचारः विद्यते अत्र उल्लेखयामि
वञ्चितानाम् उत्थानाय
आम् आम् अहम् पण्डिता क्षमा रावम् आचार्य राधा वल्लभ त्रिपाठी वर्यम् च त्रिपाठी महोदयाद् विरचितम् लहरी दशकम् काव्ये यत् सामाजिक न्यायम् वर्णितम् अस्ति तच् इदानीम् सर्वथा प्रासंगिकम् त्रिपाठी वर्यस्य तत्र निर्धनता विरोधि स्वरम् अत्याचार विरोधि स्वरम् च घोषेण नादयति
सामाजिक न्यायः दरीदृश्यते
आम् आम् प्रतिपदम् सत्ता प्रति प्रश्नम् उत्थाप्य सामाजिक न्यायम् समर्थयति इति महद् वैशिष्ट्यम् तस्य काव्यस्य
बहु समीचीनम् महोदयाः महोदयाः अद्य आधुनिक संस्कृत साहित्ये सामाजिकम् चिन्तन स्वरूपम् इति विषयम् आधृत्य भवद्भिः ख्यापितैः विद्वद् वचोभिः वयम् धन्याः अनुगृहीताः भवद्भ्यः आकाशवाणी पक्षतः पौनः पुन्येन हार्दाः धन्यवादाः सादरम् प्रणामाः नमो नमः
बहु धन्यवादाः अत्र आकाशवाण्याम् संस्कृत एकांशे संलग्नेभ्यः अधिकारिभ्यः कर्मिभ्यः श्रोतृगणेभ्यश्च अहम् अपि साधुवादम् प्रकटयामि
जयतु भारतम् जयतु संस्कृतम्
जयतु संस्कृतम्
अहो रमणीयः एषः संवादः। श्रोतृगणाः, अधुना संस्कृत दिग्दर्शन प्रभागे जतिन शर्मणा प्रस्तूयन्ते संस्कृत संसारस्य विविधाः क्रियाकलापाः।
केन्द्रीय गृहमन्त्री अमितशाहेन प्रोक्तं यत् जनैः संस्कृत भाषाध्ययनम् अभ्यासश्च करणीयः, यतोहि भारतस्य सर्वमपि ज्ञानं संस्कृत भाषायामेव निहितं वर्तते। सः अवदत् यत् संस्कृत भाषा जगतः समाह्वानानां समाधानाय मार्गदर्शनं कर्तुं शक्नोति। नवदिल्ल्यां संस्कृत भारत्या आयोजिते अष्टोत्तरैकसहस्र संस्कृत सम्भाषण शिबिराणां समापन कार्यक्रमे सम्बोधयन् सः एवमुक्तवान्। संस्कृत भाषायाः महत्त्वं बोधयन् श्रीशाहः अवदत् यत् संस्कृत भाषा अधिकांश भाषाणां जननी वर्तते। सः अवदत् यत् देशे संस्कृतस्य प्रचारार्थं सर्वकारः कार्यं कुर्वन् अस्ति। संस्कृत भारत्या अप्रैल मासस्य 23 दिनांकादारभ्य मई मासस्य 3 दिनांक पर्यन्तं राष्ट्रिय राजधान्याम् 8,100 संस्कृत सम्भाषण शिविराणाम् आयोजनं विहितम्। एतेषु शिविरेषु 25,000 यावज्जनाः भागं गृहीत्वा संस्कृत भाषामधीतवन्तः। कार्यक्रमेऽस्मिन् दिल्ल्याः मुख्यमंत्री रेखा गुप्ता, दिल्ली भाजपाध्यक्षः वीरेन्द्र सचदेवा, दिल्ली विश्वविद्यालयस्य कुलपतिः प्रोफेसर योगेश सिंहः, संस्कृत भारत्याः गणमान्यजनाः च उपस्थिताः आसन्।
समीचीनतया प्रतिपादितं भवता। अस्तु तावत् बालाः भवतां कृतेऽपि कथम् अस्माभिः विस्मर्यते बालवल्लरी भागः। अस्मिन् क्रमे समुपस्थिता वर्तते अस्मदीया सहयोगिनी साधना शर्मा। भवतां कृते किञ्च प्रस्तौति, स्वयमेव शृण्वन्तु कृपया।
बालाः, अद्य मातुः दिवसे अहम् एकां प्रार्थनां श्रावयामि। इयं प्रार्थना नरहरि नारायण भिदेवर्येण विरचिता वर्तते।
नमस्ते सदा वत्सले मातृभूमि, त्वया हिन्दुभूमि सुखं वर्धितोऽहम्। महामङ्गले पुण्यभूमे त्वदर्ते पदत्वेषकायो नमस्ते नमस्ते। विचित्री च नः संहता कार्यशक्तिः, विधायास्य धर्मस्य संरक्षणं परं वैभवं नेतुमेतत् स्वराष्ट्रं समर्था भवत्वाशिषते वृषम्।
प्रियाः बान्धवाः, एकं भारतं श्रेष्ठं भारतमिति अनुभागं स्वीकृत्य आगतास्ति मुदिता वेतालः, या हि भिन्नानि भाषागत वैशिष्ट्यानि कथयन्ति।
प्रथमं वाक्यमस्ति, अस्माकं देशे बहवः समुद्रतटाः सन्ति। पहला वाक्य है, हमारे देश में बहुत सारे समुद्र तट है। मैथिली में अपन सबहक देश में खूब समुद्रक तट अछि। द्वितीय वाक्यमस्ति, एतेषु मुंबई गोवा कोच्चि इत्यादयः अतीव प्रसिद्धाः सन्ति। दूसरा वाक्य है, इनमें से मुंबई गोवा कोच्चि आदि बहुत प्रसिद्ध है। मैथिली में एही सब में मुंबई गोवा कोची सबसे बेसी जानल जाइत अछि। तृतीय वाक्यमस्ति, गोवा तटः विदेशी पर्यटकेभ्यः समधिकं रोचते। तीसरा वाक्य है, गोवा तट विदेशी पर्यटकों को सर्वाधिक प्रिय है। मैथिली में गोवा का तट दोसर देश से आवे बला के खूब नीक लागे छे। चतुर्थम वाक्यमस्ति, भारतस्य तिसृषु दिशासु समुद्र तटाः सन्ति। चौथा वाक्य है, भारत के तीन दिशाओं में समुद्र तट हैं। मैथिली में भारत का तीनों दिशा में समुद्रक तट ऐच। पंचमं वाक्यमस्ति, अस्मादेव कारणात् भारत देशः प्रायद्वीपः इति कथ्यते। पांचवा वाक्य है, इसी कारण भारत देश प्रायद्वीप कहलाता है। मैथिली में अहि कारण स भारत देश क प्रायद्वीप कहल जायत्य। धन्यवादाः।
प्रिय मित्राणि, गमन वेलायाः प्रागेव अहम् निवेदयामि यत् भवन्तः सर्वे स्वकीयं विचारं nhdsanskrit@gmail.com इत्येतस्मिन् अणुसंकेते प्रेषयन्तु कृपया। आगामिनि रविवासरे अस्मिन्नेव समये पुनरेकदा नवीनं क्षणं समादाय उपस्थिताः भविष्यामो वयं। तावत्पर्यन्तं नमो नमः। जयतु संस्कृतं, जयतु भारतम्।